शिवस्य स्यायुक्तो यदि भवति शक्तप्रभवितुम् न चेदेवं देवो न खलु कुशलस्पन्दितुमपि अतस्त्वामाराध्य हरिहर विरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति तव चरणपङ्केरुहभवम् विरिञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम् वहत्येनं शौरिः कथमपि सहस्रेण शिरसा हरस्तं क्षुद्र्यै भजति भसितो भूलनविधिम् अविद्यानाम् अन्तस्तिमिरमिहिरद्वीपनगरी जडानाम् चैतन्यस्य तबकमकरन्दश्रुतिझरी दरिद्राणा चिन्तामणि गुणनिका जन्मजलधौ निमज्ञानां दंष्ट्रा मुररिपु वराहस्य भवति त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः त्वमेका नैवासि प्रकटितवराभीत्यभिनया भयात्रासं जातुं फलमपि च वाचा शरण्ये लोकानां तव हि चरणारेव निपुणौ हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननी पुरा नारी भूत्वा पुररिपुमपि क्षोभमनय स्मरोऽपि त्वां नत्वा रतिनयन लेशेन वपुषा मुनीनामप्यन्तप्रभवतिः मोहाय महताम् धनुः पौष्पं मौर्वी मधुकरमयी पञ्चविशिखाः वसन्तस्सामन्तो मलयमरुदायोधनरथः तथा ते अपाङ्गाते लब्ध्वा जगदिदमनङ्गो विजयते क्वणकाञ्चीदामा करिकलभकुम्भस्तननता परीक्षीणा मध्ये परिणत शरच्चन्द्रवदना धनुर्बाणा श्रेणिमपि दधाना करतलैः पुरस्तादास्ताम्यः पुरमथि पुराहो पुरुषिका सुधा सिन्धोर्मध्ये सुरविटपि वाटी परिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे शिवाकारे मञ्चे परमशिव पर्यङ्कनिलया भजन् कतिचन चिदानन्दलहरी महीमूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने कृति मरुतमाकाशमुपरि मनोऽपि भूमध्ये सकलमपि धित्वा कुलपथम् सहस्रारे सुधाधारासारैः चरणयुगलान्तर्विगलितैः प्रपञ्चं सिञ्चन्ति पुनरपि रसां नायमहतः अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयम् त्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणी चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभिशम्भोर्नवभिरपि मूलप्रकृतिभिः चतुश्चत्वारिंशत् वसुदलकलाश्रत्रिवलयत्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथमपि विरिञ्चि प्रभृतयः यदा लोकोत्सुक्यात् अमरललन यान्ति मनसा तपो दुष्प्रापामपि गिरिश सायुज्य पदवी नरं वर्षीयांसं नयनविरसं नर्मसुजडं तवापान्तालोके पतितमनुधावन्ति चतशः गलद्वेणी बन्धाः उचचलश विस्रस्तशिशया हठात्कृत्यत्काञ्चो विगलितदुकूला युवतयः शितौ षट् पञ्चाशत् द्विसमधिक पञ्चाशदुदके हुताशे द्वाषष्टिश्चतुरधिक पञ्चाशदनिले दिवि द्विषत्त्रिंशन्मनसि च चतुष्षष्टिरिति शरज्जोत्नाशुद्धाम् शशियुत जटाजूटमकुटाम् वरत्रासत्राण स्फटिक धुटिका पुस्तककराम् सकृन्नत्वा नत्वा कथमिव सता सन्निदधते मधुक्षीरद्राक्षा मधुरिमधुरीणा फणितयः कवीन्द्राणां चेतः कमलवनबालातपरुषिं भजन्ते सन्तः कतिचिदरुणामेव भवतीम् विरिञ्चि प्रेयस्यास्तरुणतर शृङ्गारलहरिगभीराभिः वाग्भिर्विदधति सताम् रञ्जनममी सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः वशिन्याद्याभित्वां सह जननि सञ्चिन्तयति यः सकर्ता काव्यानां भवति महता वचोभिर्वादेवी वदनकमलामोदमधुरैः तनुच्छायाभिस्ते तरुणतरणि श्री भवन्त्यस्य त्रस्य द्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कति कति नगीर्वाणगणिकाः मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलां ससद्यः संक्षोभं नयति वणितायित्यति लघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगा किरन्तीमङ्गेभ्यः किरणानि कुरुम्बामृतरसम् हृदि त्वामाधत्ते हिमकरशिला सर्पाणां दर्पं शमयति शकुन्ताधिपैव ज्वरप्लुष्टा दृष्ट्या सुखयति सुधाधारशिरया तटिल्लेखा तन्वीं तपनशशि वैश्वानरमयी निषण्णां षण्णामप्युपरि कमलानां तव कलां महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तः दधति परमाह्लादलहरी भवानी त्वं दासे मयि वितरदृष्टिं सकरुणा इति स्तोतुं वाञ्छन् कथयति भवानी त्वमिति यः तदैव त्वं तस्मै दिशसि निज सायुज्य पदवी मुकुन्द ब्रह्मेन्द्र स्फुटमकुट नीराजित पदा त्वया कृत्वा वामं वपुर परितृप्तेन मनसा शरीरार्धं शंभोरपरमपि शङ्के हृतमभूत् यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं कुजाभ्यामानम्रं कुटिलशशि चूडालमकुटम् जगत्सूते धाता हरिरवतिरुद्रः क्षपयते तिरस्कुर्वन्नेतत्त्वमपि वपुरीश स्थिरयति सदा तदिदमनुगृह्णाति च शिवः तवाज्ञामालम्ब्य क्षणचलितयोर्भूलतिकयोः त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर्या विरचिता तथा हि त्वत्पादोद्वहनमणि पीठस्य निकटे स्थिता चेते शश्वन्मुकुलित करोत्तम् समकुटाः विरिञ्चित् पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनं वितन्द्री माहेन्द्री विततिरपि सम्मीलितदृशा महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ जपो जल्पशिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणमचनाद्याहुतिविधिः प्रणामसंवेशसुखमखिलमात्मा फलदृशा सपर्या पर्यायस्तव भवतु यन्मे विलसितम् सुधामप्यास्वाद्य प्रतिभय जरा मृत्युहरिणी विपद्यन्ते विश्वे विधिशतमखाद्यादि विशदः करालं यच्छेलं कपलितवत कालकलन न शम्भोस्तन्मूलं तव जलनि तादङ्कमहिमा किरीटम् वैरिञ्चम् परिहर पुरःकैटभभिदः कठोरे कोठीरे खलसि जहि जम्भारिमकुटम् प्रणम्रेष्वेदेषु प्रसाधमुपयातस्य भवनम् भवत्याभ्युत्थाने तव परिजनोक्तिर्विजयते स्वदेहोद्भूताभिः घृणिभिः अणिमाद्याभिरभितः निषेवे नित्ये त्वामहमिति सदा भावयति यः किमाश्चर्यम् तस्य त्रिनयनसमृद्धिम् त्रिनयतो महासंवर्ताग्निर्विरचयति नीरा चतुष्षष्ट्यातन्त्रैः सकलमतिसन्धाय भुवनम् स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः पुनस्त्वन्निर्बन्धादखिल पुरुषार्थैकघटना स्वतन्त्रम् ते तन्त्रम् क्षितितलमवाचीतरदिदम् शिवशक्तिः कामः क्षितिरधरविस्मीतकिरणः स्मरो हंसश्चक्रस्तदनु च परामारहरयः अमी हृल्लेखाभिः तिसृभिः अवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामा लक्ष्मीं श्रितयमिदमादौ तव मनोः निधायैके नित्ये निरवधि महाभोगरसिकाः भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलयाः शिवाग्नौ जुह्वन्तः सुरभिघृतधारा कुतिशतैः शरीरं त्वं शम्भोः शशिनिहिरवक्षोरुहयुगम् तवात्मानं मन्ये भगवति नवात्मानमनघम् अत शेषः शेषित्ययमुभयसाधारणतया स्थितसम्बन्धो वां समरसपरानन्दपरयोः मनस्त्वं व्योमत्वं मरुदसि मरुसारथिरसि त्वमापस्त्वं भूमिः त्वयि परिणतायां न हि परम् त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवतिभावेन बिभृशे तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरम् परं शंभुं वंदे परिमिलित पार्श्वं परचिता यमाराध्यं भक्त्या रविशशि शुचीनाम विषये निरालोके लोके निवसति हि भालोक भुवने विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीमपि शिवसमानव्यवसिता ययो कान्त्या यान्त्याः शशिकिरणसारूप्यशरणेः विभूतान्तर्ध्वान्ता विलसति चकोरीव जगति समुन्मीलत्संवित् कमलमकरन्दैकरसिकम् भये हंस द्वन्द्वं किमपि महतां मानसचरम् यदालापात् अष्टादशगुणित विद्या परिणतिः यदा दत्ते दोष गुणमखिलमध्यः पयैव तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं तमीडे संवर्तं जननि महति तां च दहति महति क्रोधचलिते दयार्द्राया दृष्टिशिशिरमुपचारं रचयति तटित्वन्तं शक्त्या तिमिरपरिपन्थि स्फुरणया स्फुरन्ना रत्नाभरण परिणद्धेन्द्रधनुषम् तव श्यामं मेघं कमपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् तवाधारे मूले सह समयया लास्य परया नवात्मानं मन्ये नवरसमहाताण्डवनटम् उभाभ्या एताभ्याम् उदयविधिम् उद्दिश्य दयया सनाथाभ्याम् जज्ञे जनकजननीमज्जगदिदम् गतैर्माणिक्यत्वम् गगनमणिभिः सान्द्रघटितम् किरीटम् सेहैमम् हिमगिरिसुते कीर्तयति यः सनीडेयच्छायाचुरलचमलम् चन्द्रशकलम् धनुषौनासीरम् किमिति न निबध्नाति धिषणा धुनोतु ध्वांसं नस्तुलितदलितेन्दीवरवनं घनस्निग्धक्लक्ष्णं चिपुरनिकुरुम्बं तव शिवे यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो वसन्त्यस्मिन् मन्ये वदमथन वाटीविटपिलाम् तनोतु क्षेमम् नस्तव वदन सौन्दर्यलहरी परीवाह स्रोतस्तरणिरिव सीमन्तसरणिः वहन्ति सिन्दूरम् प्रबलकबरी भारतिमिरद्विषाम् वृन्दैर्वन्दीकृतमिव नवीनार्ककिरणम् अराण्यै स्वाभाव्यात् अलिकलभस श्रीभिरलतैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिं दरस्मेरे दशनरुचि किञ्चित् करुचिरे सुगन्धौ माद्यन्ति स्मरदहन चक्षुर्मधुलिह ललाटं लावण्यद्युति विमलमाभाति तव यत् तन्मन्ये मकुटघटितं चन्द्रशकलं विपर्यासन्न्यासात् उभयमपि सम्भूय च मिथः सुधालेपस्यूतिः परिणमति राकाहिमकरः भ्रुवौ भुग्ने किञ्चित् भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् धनुर्मन्ये संवेतरकरगृहीतं रतिपते प्रकोष्ठे मुष्टौ च तदयति निगूढान्तरमुमे असूते सव्यं तव नयनमर्कात्मकतया त्रिया जति रजनीनायकतया तृतीया ते दृष्टिर्दरदलितखेम मांबुजरुचिः समाधत्ते संध्यां दिवसनिशयोरन्तरचरी।